अङ्गोर्ध्वजास्वम् हरम् देवासो देवमारचिम् दधन्विरे देवत्राहद्यमोहीरे विभूतरादिम् विप्रतिप्रसोजिषमग्निमीरिष्वयन्तुलम् अस्य मेधस्य सोम्यस्य सोभरे प्रेमध्वराय पूर्व्यम् यजिष्ठम् तावृमहे देवम् देहे भत्राहोतारममद्यम् अस्य यज्ञस्य सुप्रतुम् ऊर्जो न पातम् सुभगम् सुदीदिमग्निम् श्रेष्ठ ज्योतिषम् सतना मित्रस्य वरुणस्य सो अपामासुम्नम् यक्षते दिवि यः सविधाय आहूतीयो वेदेन ददा समर्थो अग्नये यो नमसास्वध्वरः तस्ये दर्वम् तोरम् हयन्त आचपस्तस्य द्युम्नितमञ्जसाः नमो देवकृतम् कुतश्च ननमत्याकृतम् न सत् स्वग्नयो वो अग्निभिः श्यामासूनो सहसवूर्जाम्बते सुवीरस्त्वमस्मयोः प्रशंसमानो अतिथिर्न मित्रियोऽग्निरथो न वेद्याः द्वे क्षेमासो अपि सन्ति साधवस्त्वम् राजालयीनाम् सो अध्याधास्वध्वरोऽग्नेमर्तस्तु भगस प्रशंस्याः सधीभिरस्तु सनीता यस्य त्वमूर्ध्वो अध्वराय तिष्ठ शिक्षयद्वीरस्व साधवे सो अर्वद्भिः सनीता सविपन्युभिः सूरैः सनीता कृतम् गृहे स्तोमन्त नो दधीत विश्ववार्यः हव्या वा वेविषद्विषाः विप्रस्य वास्तु पतस्वहसोजहो भक्षूतमस्य राजिषु अमो देवमुपरिमर्त्यम् कृधिवसो विदुषो वचाः यो अग्निम् हव्यदातिभिर्नमोभिर्वा सुदक्षमाविवासति गिरावाजिरसोजिषम् समिधायो निशीदीता सदति किम् धामाभिरस्य मत्याः विश्वेत्सधीभिः सुभगोजनाैरुग्नजीवतारिषत् तदग्ने द्युम्नमाभरयत् सा सहत्सदनेकम् चिदत्रिमम् मन्यम् जनस्य रूढ्याः येन दष्टे वरुणो मित्रो अर्यमायेन न सत्या भगाः अयम् दत्ते सपसागा दुवित्तमानिन्द्रक्रोता विधेमहि एधेदग्ने स्वाध्यो प्रणिदधिरेक्षसम् विप्रासो देव सुक्रतुम् तयिद्वेदिम् सुभगदाहूतिम् ते सोतुम् चक्रिरे दिवि तयिद्वाजेभिर्यज्ञर्महद्धनम् ये त्वे कामम् ये रिरे भद्रो नो अग्निराहूतो भद्रा राजिः सुभगभद्रो अध्वरः भद्रावत प्रशस्तयः भद्रम् मनः कृणष्टवृत्रे जेना समत्सु सासहाः अवस्थिरातनु हि भूरि सद्धराम् मने माते अभिष्टिभिः ईरे गिरामनुर्हितम् यम् देवादूतमाधरिण्ये धिरे यज्येष्ठम् हव्यवाहनम् इग्मजम् भाजतरुणाय राजते प्रयोगाय स्वग्नजे यः पिंसते सुहृताभिः सुवीर्यमग्निर्घृतेभिराहूतः यदीघृतेभिराहूतो वासी मग्निर्भरतमुच्चाव च असूर इव निर्निजम् यो हव्यान्यैरायतामनुर्हितो देव आसासु गन्धिना इवास देवान्यानिस्वध्वरो होता देवो अमर्त्यः यदग्भेमत्यस्त्वम् स्यामहम् मित्रमहो अमर्त्यः सहसस्तूनबाहुत नत्वारासि याभिसस्तजेव सोनपाय सन्त्य मे स्तोतामदीवानदुर्हीतस्यादग्नेन पापया त्रिदुर्णपुत्रः सुभृतो दुरो न आदेवान्ये दुःप्रलोहदिः सपाहमग्नभूतिभिर्ने दृष्टाभिस्रते यजोषमावसो सदा देवस्य मत्याः तवक्रत्वासने जन्तवरातिभिरग्नेतपप्रशस्तिभिः आहुः प्रमाजिम्ब सोममाग्ने हर्षस्वदातवे रसो अग्नेतपोतिभिः सुवीराभिस्तिरते वाजधर्मभिः यस्य त्वम् सख्यमापराः तव द्रप्सो नीलवान् वासरित्रिजन्धानस्तिष्ठमाददे त्वम् माहीनामुषसामसे प्रियः क्षपो वस्तुषु राजसि समागन्मसोभरयः सहस्रमुष्कान् स्वभिष्टिमवसे सम्राजम् दासदस्यवम् यस्य ते अग्ने अन्ये अग्नय उपक्षितो भजाजीव रिपो नद्युम्नानि यो वेदनानाम् तव क्षत्राणि वर्धयन् यमादित्यासो अद्युहः पारन्नय समत्यम् भगोनाम् विश्वेषाम् सुदानवः यूयम् राजानः कञ्चिच्चर्षणि साक्षयम् धम्मानुषा नु वयम् ते गोपरो न मित्रार्यमास्यामे धृतस्य रथ्याः अदान्मे पौरुगुच्छः पञ्चाशतम् रसदस्युर्वधूनाम् ब्रह्मिष्ठो अर्यः सप्तादिः उतमे प्रययोर्वययोः सुवा स्वाधिरुग्वनि श्रीणाम् सप्तदीनाम् शापप्रणेता भूपद्मसुर्धियानाम् पतिः।